एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रमुखाणाम् त्रयाणाम् दलानाम् शीर्षनेतृणाम् मध्ये प्रतिनिधिसभायाः उपवेशावरोधनस्य अन्तस्य प्रधान न्यायाधीशस्य नियुक्तये सांविधानिक परिषदः उपवेशस्य आकारणस्य च विषययोः ह्यो विमर्शनम् अभवत्। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे सम्पन्ने मेलने सांविधानिक परिषदः उपवेशम् आयोज्य प्रधान न्यायाधीशस्य नियुक्तये परामर्शनस्य सदने उत्पन्नस्य अवरोधस्य अन्तस्य च विषययोः अनुकूल विमर्शनम् सम्भूतमिति प्रधानमन्त्रिणः संचार परामर्शदाता गोविन्द आचार्यः अज्ञापयत्। तदवसरे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड सांविधानिक परिषदः अन्यै सदस्यै सह विमृश्य शीघ्रं परिषदः उपवेशः आकारयिष्यते इत्यभाषत। विमर्शने प्रधानमन्त्री प्रचण्डः नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा, नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली च सहभागिनः आसन्। पूर्वेद्युरेव प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलिनश्च मध्ये मेलवार्ता सम्पन्ना। बाल्वाटारस्थिते प्रधानमन्त्री निवासे सम्पन्ने तस्मिन् मेलने सांविधानिक परिषदः उपवेशाकारणस्य प्रधान न्यायाधीशस्य परामर्शनस्य च विषययोः विमर्शनम् अभवत्। एवमेव संसदः अवरोध निवारणस्य च विषयेऽपि विमृष्टमिति प्रधानमन्त्रिणः नैज सचिवालयः सूचयति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते आगामी दिनेषु भ्रष्टाचारस्य अन्याः पत्रसञ्चयिन्यश्च क्रमशः उद्घाटयिष्यन्ते। काष्ठमण्डपे गतदिने आयोजिते समाजवादी विद्यार्थी संगठन संयुतेः घोषणा कार्यक्रमे प्रधानमन्त्री प्रचण्ड अवोचत् सर्वकार भ्रष्टाचार विरोधी कार्य निरन्तरम् अग्रे वर्धमानो वर्तते, एतदर्थं सर्वेषां समर्थनम् आवश्यकमस्ति। प्रधानमन्त्री प्रचण्ड स्व मंगलवासरे प्रथम संघ शिक्षा विधेयकं मन्त्रिपरिषदा पारितीकृत्य सदनं प्रेषयितुं पूर्वकार्यं विहितमस्तीति अबोधयत्। प्रधानमन्त्री प्रचण्ड असार्वजनिकृतं उच्चस्तरीय शिक्षायोगस्य प्रतिवेदनम् अन्विष्यमाणमस्तीति च असूचयत्। एवमेव वामबुद्धिजीविनः माधव मराठाविदस्य जीवनीम् आधृतम् माधवसर इति शीर्षकीयं पुस्तकं काष्ठमण्डपे लोकाय अर्पयन् प्रधानमन्त्री प्रचण्डः भ्रष्टाचारस्य विरुद्धे सुशासनस्य पक्षे च सर्वकारेण विहितेन महत्वपूर्ण प्रयासेन जनतायां नूतन रक्तसञ्चारः विहितोऽस्तीति अवोचत। प्रधानमन्त्री प्रचण्डः अकथयत् वामबुद्धिजीविना मराठाविदेन क्रान्तिकारी जनमतस्य निर्माणाय वामान्दोलनस्य विकासाय च महत्वपूर्णं योगदानं प्रापितं वर्तते। पूर्वेद्युरेव निवेशन समितेः कार्यालयस्य वार्षिक प्रतिवेदनं गृह्णन् प्रधानमन्त्री प्रचण्डः समितिः सक्रियायाः प्रभावकारिण्याः विज्ञानं ज्ञानानुभवयोः क्रियान्वयनक्षमायाश्च संस्थायाः रूपेण अग्रे प्रवर्धते इत्यभाषत। प्रधानमन्त्री प्रचण्ड समितेः सक्षमतायै आवश्यकस्य नीतिगत विधिगत संस्थागत सुधारस्य स्वरूपं प्रस्तोतुं प्रमुख कार्यकारी अधिकृतं निरदिशत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड लम्प स्किन डेंगी प्रवृत्ति संक्रामक रोगाणां तत्कालं निरोधन नियन्त्रणयोः कृते सम्बद्ध निकायै सह समन्वयं विधातुं निर्दिशति। नेपाल सर्वकारस्य मुख्य सचिवेन सह प्रधानमन्त्री मन्त्रिपरिषद कार्यालयस्य सचिवै सह सामयिक विषयान् आधृत्य ह्य उपविष्टे उपवेशे असौ लम्प स्किन डेंगी सहितानां संक्रामक रोगाणां तत्कालं निरोधन नियन्त्रणयोः कृते सम्बद्ध निकायै सह समन्वयं स्थापयितुम् एवं निरदिशत। प्रधानमन्त्री प्रचण्ड प्रधानमन्त्री मन्त्रिपरिषद कार्यालयं सेवां सहजतया प्रवाहयितुं निर्माणाय अवशिष्टान् विधीन् शीघ्रम् अग्रे वर्धयितुं राष्ट्रिय गौरवस्य विपुलानां च आयोजनानाम् अनुगमनं निरीक्षणयोः कार्यम् अतिरिक्तं प्रभावकारी विधातुं च निरदिशत। उपवेशे विमर्शनस्य क्रमे प्रधानमन्त्रिणा प्रचण्डेन अधुनावधि सम्पन्नानां गतिविधीनां विषये ज्ञातम् आसीत्। नेकपा एकीकृत समाजवादी दलस्य केन्द्रीय सचिवालयस्य उपवेशः अद्य उपविशति। काष्ठमण्डपस्य मीनभवन वर्तिनी दलस्य केन्द्रीय कार्यालये उपविश्यमानेऽस्मिन् उपवेशे दलस्य विभिन्न स्तराणाम् उपवेशानां स्थानस्य समयस्य च निर्धारणस्य विषये विमृश्यते इति उपमहासचिवः जगन्नाथ खतिवडा अज्ञापयत्। राष्ट्रिय सभायाः विधायन व्यवस्थापन समिते ह्यस्तनोपवेशेन वैद्युत व्यवसायस्य सुरक्षायाः आवश्यकतास्तीति बलं दत्तं वर्तते। एतद् विक्रमवर्षीय वैद्युत व्यापार विधेयकम् आधृत्य विहिते विमर्शने सम्बद्ध क्षेत्राणां विज्ञैः सूचना प्रविधेर्माध्यमेन विधीयमानानां सर्वविधानां व्यवसायानां व्यवस्थापनेन तस्य सुरक्षया सम्भावित समाह्वयेन नियमनेन च सम्बद्धं स्पष्टं प्रावधानं स्थापयितुं परामृष्टमस्ति। विमर्शने वैद्युत व्यवसायं सुरक्षितं विश्वस्तं च विधातुं वेदनायाः श्रवणं मिथ्या निवेदनानि रोद्धुं कृत्रिम मूल्यस्य टंकनं परामर्श प्रदानं चेति सदृशानां कार्याणां नियमनं दण्डनं च विधातुं उचित प्रावधानानि वर्धयितुं च विज्ञैः परामृष्टम् आसीत्। रूकुमा पश्चिम जनपदे भूस्खलनेन जनद्वयं मृतं वर्तते। रूकुमा पश्चिम जनपदस्य बाफीकोट ग्रामपालिकाया सप्तमवडा क्षेत्रस्य बाँसथलावर्तिनी पोखरा परिभृगौ घाँसकर्तनाय गर्तौ बाफीकोट ग्रामपालिकाया सप्तमवडा क्षेत्रस्य चतुःपञ्चाशद् वर्षीया धनमाया खत्री एतदेव स्थानस्य चतुश्चत्वारिंशद् वर्षीया कालीबहादुर खड्का च भूस्खलने निपत्य मृताविति रूकुमा पश्चिम जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब उपरीक्षक नमराज भट्टराई अज्ञापयत। भूस्खलने निपत्य हातस्य एकस्य जनस्य जनपद चिकित्सालये उपचार विद्यमानोस्तीति प्रहरिणा ज्ञापितं वर्तते। अधिकार दुरुपयोगानुसन्धानायोगेन अवैधानिक रूपेण सम्पत्ति अर्जितेति अभियोगे चावैल वर्तिनी भूमापन कार्यालय कार्यरतस्य भूमापनाधिकृतस्य राजपुरी इत्यस्य विरूद्धे ह्यो विशेष न्यायालये न्यायिक प्रकरणं पञ्जीकारितं वर्तते। आयोगेन भूमापनाधिकृतस्य पुरी इत्यस्य विरूद्धे एककोटि चत्वारि लक्षाणि च रूप्यकाणि हानिवित्तं कारावास दण्डनञ्च अभियाच्य विशेष न्यायालये न्यायिक प्रकरणमेतद् पञ्जीकारितमिति आयोगस्य प्रवक्ता भोला दाहाल ज्ञापयत। सार्वजनिक पदे विद्यमानताया समय अवैधानिक रूपेण अर्जिता सम्पत्ति तथैव वर्धिता सम्पत्तिश्च पत्न्याः सृजनायाः नाम्नि स्थापितेति प्राप्तमित्यतः पत्नीं सृजनां च प्रतिवादिनीं निर्धार्यापि न्यायिक प्रकरणं पञ्जीकारितमिति प्रवक्ता दाहालः असूचयत्। वैदेशिक वृत्त्युपार्जन विभागस्य कोरिया शाखया कोरिया देशीय भाषाया परीक्षायै आवेदन पत्रम् आहूतं वर्तते। जलयान संस्थाने श्रमिकाणां रूपेण प्रेषणस्य सन्दर्भे प्रत्याशिनो निर्धारयितुं कोरिया देशीय भाषाया परीक्षा सञ्चाल्यमानास्तीति विभागस्य कोरिया शाखाया प्रमुख निर्देशकश्च गुरूदत्त सुवेदी अज्ञापयत। निर्देशकस्य सुवेदिनः अनुसारेण नेपाल सर्वकारस्य श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयस्य गणतन्त्र कोरिया देशस्य श्रमवृत्त्युपार्जन मन्त्रालयस्य च मध्ये विहितायाः संविधायाः अनुरूपं वृत्त्युपार्जनानुमति प्रणाल्याः अन्तर्गतं कोरिया देशे नेपाली नागरिकान् नेतुम् इह सूचना च प्रकाशिता वर्तते। अद्य श्रावणस्य पञ्चदश दिवसः नेपालीभिः क्षीरान्न भक्षणेन समायोज्यमानो वर्तते। वर्षाभिः क्लिन्नं शरीरं व्याधिरहितं विदातुम् ऊर्जोमयं स्थापयितुं च परम्परेयं प्रचलितेति संस्कृतिविदः वदन्ति। पाकिस्तान देशस्य उत्तर पश्चिमस्थे बजावर जनपदे आयोजिते एकस्मिन् राजनीतिक मेलने ह्यो बम्भास्त्रं विस्फोटितं सदा न्यूनतोपि एकोनचत्वारिंशत् जनाः मृताः सन्ति। एफ नाम्नः रूढिवादानुयायिनः इस्लामिक जमियत उलेमा ए इस्लाम दलस्य मेलने दुरापन्नेन बम्बास्त्र विस्फोटनेन शतद्वयाधिका जनाः आताः सन्तीति अधिकारिणः कथयन्ति। घटनायां तद्दलस्य एक स्थानीय नेता च अम्रियत। प्रहरी विस्फोटनमिदम् आत्मघाती स्यात् इति आशंकते इति समाचाराः।